अच्युतं केशवं रामनारायणं अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिं कृष्णदामोदरं वासुदेवं हरिं श्रीधरं माधवं गोपिकावल्लभं श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे जानकीनायकं रामचन्द्रं भजे अच्युतं केशवं सत्यभामाधवं अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितं माधवं श्रीधरं राधिकाराधितम् इन्दिरामन्दिरं चेतसा सुन्दरम् इन्दिरामन्दिरं चेतसा सुन्दरम् देवकीनन्दनं नन्दजं सन्दधे देवकीनन्दनं नन्दजं सन्दधे विष्णवे जिष्णवे शङ्खिने चक्रिणे विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणी रागिणे जानकी जानये रुक्मिणी रागिणे जानकी जानये वल्लवी वल्लभा यार्चितायात्मने वल्लवी वल्लभा यार्चितायात्मने कंसवेध्वंसिने वंशिने ते नमः कंसवेध्वंसिने वंशिने ते नमः कृष्ण गोविंद हे रामनारायण कृष्ण गोविंद हे रामनारायण श्रीपते वासुदे वाजित श्रीनिधे श्रीपते वासुदे वाजित श्रीनिधे अच्युतानन्त हे माधवाधोक्षज अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदी रक्षक द्वारकानायक द्रौपदी रक्षक राक्षसक्षोभितः सीतया शोभितो राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभू पुण्यताकारणः दण्डकारण्यभू पुण्यताकारणः लक्ष्मणेनान्वितो वानरैः सेवितो लक्ष्मणेनान्वितो वानरैः सेवितो अगस्त्यसम्पूजितो राघव पातु माम् अगस्त्यसम्पूजितो राघव पातु माम् धेनुकारिष्टः निष्टकृद्वेषिणां धेनुकारिष्टः निष्टकृद्वेषिणां केशिहा कंसहृद् वंशिकावादकः केशिहा कंसहृद् वंशिकावादकः पूतनाकोपक सूरजाखेलनो पूतनाकोपक सूरजाखेलनो बालगोपालक पातु मां सर्वदा बालगोपालक पातु मां सर्वदा विद्युदुद्योतवत् प्रस्फुरद्वाससं विद्युदुद्योतवत् प्रस्फुरध्वाससं प्रावृडं भोदवत् प्रोलसद्विग्रहं प्रावृडं भोदवत् प्रोलसद्विग्रहं वन्ययामालया शोभितोरस्थलं वन्ययामालया शोभितोरस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे कुञ्चितैः कुन्तलैर्भाजमानाननं कुञ्चितैः कुन्तलैर्भाजमानाननं रत्नमौलिं लसत् कुण्डलं गण्डयोः रत्नमौलिं लसत् कुण्डलं गण्डयोः हारकेयूरकं कङ्कणः प्रोज्ज्वलं हारकेयूरकं कङ्कणः प्रोज्ज्वलं किङ्किणीमञ्जुळं श्यामलं तं भजे किङ्किणीमञ्जुळं श्यामलं तं भजे अच्युतस्याष्टकं यः पठेद्दिष्टदम् अच्युतस्याष्टकं यः पठेद्दिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहं प्रेमतः प्रत्यहं पूरुषः सस्पृहं वृत्ततः सुन्दरं वेद्यवेश्वम्भरं वृत्ततः सुन्दरं वेद्यवेश्वम्भरं तस्य वश्यो हरिर्जायते सत्वरं तस्य वश्यो हरिर्जायते सत्वरम्।